सन्निकन्दनं नमामि गोपनन्दनम् शायिनं नमामि कुञ्जकानने प्रवृद्धवह्निपायिनं यदा तदा यथा तथा तथैव कृष्णसत्कथा मया सदैव गीयतां तथा कृपा विधीयताम्
प्रामाणिकाष्टकद्वयं जपत्यधीत्य
नन्दनन्दने भवे भवे सुभक्तिमान् भवे सनन्दनन्दने भवे भवे सुभक्तिमान् भवे सनन्दनन्दने भवे भवे सुभक्तिमान्
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन मा कर्मफलहेतुर्भुः मा ते सङ्गोऽस्त्वकर्मणि कर्मणः शरीरयात्रापि च ते न प्रसिद्ध्येद कर्मणः तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृता धर्मसंस्थापनार्थाय संभवामि युगे युगे। पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति तदहं भक्त्युपरतम् अश्नामि प्रयतात्मनः।